गीता साधक संजीवनी तीसरा अध्याय श्लोक 1 से 11 तक।
वसुदेव सुतं देवं कंसचारुरमर्दनं देवकी परमानंदं कृष्णं वंदे जगद्गुरुं।
ओम श्री परमात्मने नमः। अथ तृतीयोऽध्याय। अर्जुन उवाच यायसि चेत् कर्मणस्ते मता बोधिर्जनार्दन तत्किं कर्मणि घोरे मां नियोजयसि केशव। व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे तदेकं वद निश्चेत्य येन श्रेयोऽहमाप्नुयाम्। श्री भगवान उवाच लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मया नभ ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनां न कर्मणाम नारम्भात् नैष्कर्म्यं पुरुषोऽश्नुते न स सन्न्यसनादेव सिद्धिं समधिगच्छति न हि कश्चित् क्षणमपि जातु तिष्ठत्य कर्मकृत् कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते। यस्तेन्द्रियाणि मनसा नियाम्यारभते अर्जुन कर्मेन्द्रियैः कर्मयोग मसक्तः स विशिष्यते नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य कर्मण शरीरयात्रापि च ते न प्रसिद्धेन कर्मण यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धन तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर सह यज्ञः प्रजाः सृष्ट्वा पुरोवाच प्रजापते अनेन प्रसविष्यध्व मेषवोऽस्तेष्टकामधो देवान् भावयतानेन ते देवा भावयन्तु परस्परं भावयन्त श्रेय परमवाप्स्यथ देवान् भावयतानेन ते देवा भावयन्तु परस्परं भावयन्त श्रेय परमवाप्स्यथ।
वसुदेव सुतं देवं कंसचारुरमर्दनं देव देवकी परमानंदं कृष्णं वंदे।